गुरुर्गणेशः समितो गुरुं तं भजे गणेशं गुरुणा च तेन सदा गणेशेन सदेरितः स्याम् नमश्च तस्मै गुरवे चितेस्तु नतिर्गणेशाय न यद्गणेशा गुरोश्च तस्मादधिकं गुरुलोके बिम्बो गणेशस्य गुरोश्च तस्य सनन्दयो यावि गुरो गणेशे तस्मिन् शरण्येव गुरो गणेश सुखात्मरूपात्मफलं प्रदेहि त्रिधात्रिमूर्तिं प्रणमामि भक्त्या ङ्गनाशाय विभक्तिमत्या निराकृतिं त्वां मृगजागृतिं च स्थाणुप्रियं स्थावरजङ्गमात्मन् वन्दे वदातं गुरु एकदन्ताय च विद्महे रामवक्रतुण्डाय धीमहि क्लीं तन्नो हदन्ती स प्रचोदयात्सौ सर्वेश्वरः स्वान्तबहिस्थितो यः समनाद्यनन्तम् यं चारमाद्यं सुचरं रवभ्रुं वन्दारुवृन्दारकसंस्कृतं तम् अर्चामि भक्त्या सुमनोर्वाभिः ॐ गुं नमः काशीजपन् सद्भक्तिरेकास्तु सदा तवैव कामं भवातिं विषहेनुकम्पा लभे यदास्यं यदि ते भवोगे अन्तकाले त्वयि प्रवेशोऽस्ति सुनिश्चितं मे गणेशस्तुतिरेशाही नानारङ्गसुरञ्जिता पठनाद् भक्तितो दद्या
इति श्रीदत्तपादारविन्दमिलिन्दब्रह्मचारी पाण्डुरङ्गरङ्ग अवधूत महाराज विरचितं गुर्वभिन्नगणेशस्तुतिः सम्पूर्णम्।